एषा रेडियो नेपालः सम्प्रति समाचारः श्रीयन्ताम् प्रभाषकः ध्रुव भट्टराई। प्रधानमन्त्री केपी शर्माले कथयति दलस्य सुदृढीकरणाय अपि कचित जनानां परित्यज्य प्रस्थानस्य आवश्यकतां सत्यं तादृशानि तत्वानि दलात् स्वयंभरीभूतानि सन्ति। नेपाल भूम्यावासैन संगठनस्य राष्ट्रिय मेलनं गतदिने काष्ठमण्डपे सम्बोधयन् प्रधानमन्त्री ओली अवोचत् विघटितां प्रतिनिधिसभां पुनर्जीवितां विधाय प्रधानमन्त्री पदस्य प्राप्ते अन्येषां सहयोगस्य याचका कीदृशा सन्ति जनतयात् पूर्वमेव परिचिता वर्तन्ते। प्रधानमन्त्री ओली नेपाल पिधानस्य प्रवादं प्रचार्य ते किं कर्तुम् इच्छन्ति, जनता किं पिधानम् अपेक्षते इति प्रश्नम् उद्भावयन् अतर्कयत् जनतायं गन्तुं सर्वकारेण विहितो निर्णय लोकतन्त्रस्य जनतायाश्च पक्षे वर्तते। प्रधानमन्त्री ओली भूम्यावासहीनानां समस्यानां समाधानाय सर्वकारः क्रियाशीलो वर्तते, एतदर्थमेव भूम्यायोगस्य संघटितो स्थिति अब्रवीत्। विगत समये दलस्य आभ्यन्तराणमेव नेतृणां कारणेन भूम्यायोगस्य संघटने विलम्बो जातः परं परित्यागेन तेषां प्रस्थानस्य अनन्तरं भूम्यायोग संघटित इति चर्चन् प्रधानमन्त्री ओली अभाषत। अनेन आयोगेन भूम्यावासहीनानां समस्या समाधास्यन्ते। कार्यक्रमे लुम्बिनी प्रदेशस्य मुख्यमन्त्री शंकर पोखरेल अगदत् केपी ओलिनो नेतृत्वस्य सर्वकार भूम्यावासहीन विपन्नानां पक्षे वर्तते, एतेषाम् अव्यवस्थित वसतिश्च समस्या समाधास्यन्ते च। विभिन्नेषु सांविधानिक निकायेषु नियुक्ता पदाधिकारिण ह्य पदगोपनीयतयो शपथम् अगृह्णन्। राष्ट्रपति भवने शीतल निवासे ह्य आयोजिते शपथ ग्रहण समारोहे सांविधानिक निकायानां नवनियुक्तान् प्रमुखान् प्रधान न्यायाधीश चोलेन्द्र शमशेर राणा अन्यान् सदस्यान् सम्बद्ध निकायान् प्रमुखाश्च शपथम् अग्राहयन्। समारोहे राष्ट्रपति विद्यादेवी भण्डारिण, प्रधानमन्त्रिण केपी शर्मा ओलिन, राष्ट्रिय सभा अध्यक्षश्च गणेश प्रसाद तिमलसेना भिदस्य च उपस्थिति आसीत्। राष्ट्रपति विद्यादेवी भण्डारिण समक्षम् अधिकार दुरूपयोगानुसन्धान आयोगस्य आयुक्त डा गणेशराज जोशी ह्य पदात्यागपत्रम् अदात्। आयुक्तेन जोशिना लिखितं त्यागपत्रं प्रदत्तम् इति राष्ट्रपति कार्यालयस्य प्रवक्ता जगन्नाथ पन्त ह्यो विज्ञप्तिं प्रकाश्य ज्ञापितवान्। निर्वाचन आयोगेन आगामिनी वैशाख मासे सम्पत्स्यमानाय प्रतिनिधिसभा सदस्यानो निर्वाचनाय शब्दाब्जानी 7,94,00,000 88,000 च रूप्यकाणि प्रदातुम् अर्थमन्त्रालयाय पत्राचार विहितो वर्तते। आयोगस्य उपवेशन प्रतिनिधिसभाया सदस्यानां निर्वाचनाय आर्थिक व्यवस्थापनस्य कृते एतद्विक्रमाब्दीयस्य प्रतिनिधिसभा सदस्य निर्वाचनार्थिक विधेः अनुसारेण निर्वाचनस्य सञ्चालनाय व्यवस्थापनाय च आवश्यकं वित्तं प्रदातुं विहितस्य अर्थमन्त्रालयाय पत्र प्रेषणस्य निर्णयस्य अनुसारेण च पत्राचार विहित इति आयोगस्य प्रवक्ता राजकुमार श्रेष्ठ अज्ञापयत्। कोविड 19 महामार्या समये निर्वाचनस्य सञ्चालन व्यवस्थापनं च विधेयं वर्तते इत्यतः विगतानां निर्वाचनानां व्यात् मितव्ययत्वेन कोविड 19 महामार्यां अवलम्बनीयां स्वास्थ्य सावधानतां च ध्यात्वा निर्वाचन सञ्चालनार्थिक कार्यविधि निर्मितो स्थिति प्रवक्ता श्रेष्ठ अवबोधयत्। निर्वाचन आयोगेन आगामिनी वैशाख मासे सम्पत्स्यमानाय प्रतिनिधिसभा सदस्यानां निर्वाचनाय निर्वाचन पर्यवेक्षण व्यवस्थापन प्रवृत्तिषु विषयेषु परराष्ट्र मन्त्रिणा प्रदीप कुमार ज्ञवालिन सह विमृष्टिं वर्तते। निर्वाचन आयोगे ह्य सम्पन्ने विमर्शने मन्त्री ज्ञवाली निर्वाचने आगमिष्यमाणानाम् अन्तर्राष्ट्रिय पर्यवेक्षकाणां कृते आवश्यको सहयोग समन्वयौ परराष्ट्र मन्त्रालयं विधास्यति इति प्रतिबद्धतां व्यक्तवान्। तदवसरे प्रमुख निर्वाचन आयुक्त दिनेश कुमार थपलिया अगदत् प्रतिनिधिसभाया सदस्यानां आगामिन निर्वाचनस्य स्वच्छतायै निष्पक्षतायै स्वतन्त्रतायै विश्वसनीयतायै च अन्तर्राष्ट्रिय मान्यता च आवश्यकी भवति इत्यतः अस्मिन् विषये उपयुक्तं वातावरण निर्मातुं परराष्ट्र मन्त्रालयस्य सहयोग समन्वयश्च आवश्यको स्तः। सर्वोच्च न्यायालये प्रतिनिधिसभाया विघटनस्य विरूद्धे पञ्जीकारितेषु आदेशाभियाचन निवेदनेषु सर्वकार्यपक्षस्य विधि व्यवसायिनां विमर्शनस्य क्रम अविच्छिन्नो वर्तते। गतदिवसीय न्यायपीठे सर्वकारस्य पक्षतः नायब महानाधिवक्ता पदम प्रसाद पाण्डे विमर्शनमेतत् निरन्तरम् अचालयत्। नायब महानाधिवक्ता पाण्डे प्रधानमन्त्रिणा प्रतिनिधिसभाया अविघटितायं सत्यं संसदीय व्यवस्था एव संकटापन्न सम्भवेत् इति चर्चयन् सर्वकारस्य अस्थिरतां यावत् विकासो न सम्भव भवतीति हेतो नवीन जनादेशाय गन्तव्य अभूतीति अतर्कयत। तत्पूर्व सर्वकारस्य पक्षतः वरिष्ठाधिवक्ता सुशील पन्त विमर्शन व्यदधात्। वरिष्ठाधिवक्ता पन्त संविधानस्य चतुस्सप्ततितम्या धाराया संसदीय अभ्यासानुसारेण विघटनं विहितमिति अतर्कयत। दुर्गम क्षेत्रेषु कार्यरतेभ्य स्वास्थ्यकर्मीभ्य कर्मचारिभ्य महिला स्वास्थ्य स्वयंसेविकाभ्यश्च दिनत्रयाभ्यन्तरे कोरोना विरोधी टीकाकरण विधीयते इति स्वास्थ्य मन्त्रालयेन ज्ञापितमस्ति। मन्त्रालयस्य हस्तने संचार संक्षेप कार्यक्रमे प्रवक्ता प्राध्यापक डा जागेश्वर गौतमः टीकाकरण अभियानस्य अन्तर्गतं दिनत्रयाभ्यन्तरे दुर्गम क्षेत्रेषु कार्यरतेभ्य स्वास्थ्यकर्मीभ्य अन्तर्राष्ट्रिय सीमा प्रवेश बिन्दुषु कार्यरतेभ्य कर्मचारिभ्य महिला स्वास्थ्य स्वयंसेविकाभ्यश्च टीकाकरण विधीयते इति अवबोधयत्। प्रवक्ता डा गौतमः प्रथम चरणे टीकाकरणाय लक्षित समूहानाम् अवशिष्ट व्यक्तिभिः द्वितीय चरणस्य वयस समूहस्य अनुक्रमे टीकाकरण सेवां ग्रहीतुम् अनुरुणत। प्रवक्ता डा गौतमः प्रथम चरणे अवशिष्टाभिः लक्षित व्यक्तिभिः सम्बद्ध कार्यालयानां परामर्श जनपद स्वास्थ्य कार्यालयं गत्वा टीकाकरण कर्तुं शक्यते इति अबोधयत। स्वास्थ्य मन्त्रालय अनुसारेण ह्यस्तनावधि मुख्य प्राथमिकतायां स्थापिते लक्षण 45,000+44,000+ जनै कोरोना संक्रमण विरोधी टीकाकरण विहितमस्ति। अत्रान्तरे कोरोना संक्रमणात् ह्यः अतिरिक्ता 6,17 जना मुक्ताः सन्ति। ह्यः आराष्टम 1,37,97,500 च निदर्शनानां पीसीआर विधिना परीक्षणं विहितं सत् 42,100 जनेषु कोरोना संक्रमणं पुष्टीभूतं वर्तते इति समाचारः।